कः वा का वदति सरस्वती वन्दना? कः इच्छति, का इच्छति? हा वदतु, वदतु महोदय, वदतु।
ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः, नमो नमः सर्वेषां, स्वागतं सर्वेभ्यो, नमो नमः।
नमो नमः भगिनी,
धन्यवादः।
इदानीं इन् टुडेस् लेक्चर् वि आर् गोयिङ्ग् टु स्टडि षष्ठीविभक्तिरूपकाणि। षष्ठी विभक्ति, विभक्ति इत्युक्ते किम्? वाट् इस् विभक्ति? डिक्लेन्शन्स्,
षष्ठी
करेक्ट्, केस् एण्डिङ्ग्स्, षष्ठी विभक्ति सम्बन्धं दर्शयति षष्ठी विभक्ति। सो फस्ट् लेट् अस् ट्रै टु अण्डर्स्टाण्ड् वाट् इस् षष्ठी, एण्ड् लेटर् आन् विल् see few sentences and then we will go for the application. Okay, slowly and slowly. I'll share my screen.
Hello Nisha ji, I just have a few questions. Is there a WhatsApp group that one can join this class?
हा भगिनी, इदानीं तत्र वाट्सेप् ग्रूप् नास्ति, अनन्तरं पश्यामः। ओके, वि विल् आर्गनैज् फोर् वाट्सेप् ग्रूप् आफ्टर् 3-4 सेशन्स् डेफिनेट्लि।
ओके,
सो देट् यु वाण्ट् टु हाव् एनी नोटीस् अबौट् प्रायर् नोटीस् अबौट् लास्ट् एण्ड् आल्, विल् डू देट् डेफिनेट्लि।
धन्यवादः।
ओके भगिनी, धन्यवादः। स्क्रीन् दृश्यते वा?
आं दृश्यते।
स्क्रीन् दृश्यते? Now, just listen to what I'm saying. Okay, just don't bother about what is Shashti, what is Vibhakti and all. Just listen. Eshah Balakah. Eshah Balakah. Eshah Balakah. Eshah Balakah. Kinchit sarve mute kurvantu. किञ्चित् एषः बालकः अस्माकं वर्गे आगच्छति, अतः एषः बालकः। किञ्चित् दूरे तिष्ठति, तत् सः बालकः। इदानीम् एषः बालकः। बालकस्य हस्ते किमस्ति? Come on, give me answer. Whenever we are answering, full sentence. Balakasya haste pustakam asti. Pustakam, neutral gender, right? Balakasya haste pustakam asti. Eshah balakah vadati, kim vadati? Mama pustakam. मम पुस्तकं। सः वदति, एषः बालकः वदति, अहं बालकः, मम पुस्तकम्। अहं बालकः, मम पुस्तकम्। नौ लुकिङ्ग् एट् देट् बाय् एण्ड् द पिक्चर् आफ् देट् बाय्, वी आर् सेयिङ्ग् वाट् वी आर् सेयिङ्ग्? एषः बालकः, एषः बालकः, एतस्य पुस्तकम्। एषः बालकः, एतस्य पुस्तकम्। पुनः एकवारं सर्वे शृण्वन्तु। बालकः वदति, अहं बालकः, मम पुस्तकम्। अहं बालकः, मम पुस्तकम्। वाट् वी आल् आर् सेयिङ्ग्? एषः बालकः, एतस्य पुस्तकम्। एषः बालकः एतस्य पुस्तकम्। अहं बालकः मम पुस्तकम्। अहं मम। एषः एतस्य। इदानीं चिन्तयतु, किञ्चित् दूरे अस्ति बालकः, सः बालकः, सः बालकः तस्य पुस्तकम्, सः बालकः तस्य पुस्तकम्। नौ थ्री पेर्स्, अहं बालकः मम पुस्तकम्, एषः बालकः एतस्य पुस्तकम्, सः बालकः तस्य पुस्तकम्। वन् मोर् पेर्, वन् मोर् पेर्, वाट् इस् देट्? ऐ एम् टेलिङ्ग् दिस् टु दिस् बाय्, ऐ एम् सेयिङ्ग् त्वं बालकः, त्वं बालकः, त्वं बालकः तव पुस्तकम्। ऐ एम् जस्ट् टेलिङ्ग् दिस्, द बाय् इस् सिटिङ्ग् इन् फ्रण्ट् आफ् मी एण्ड् ऐ एम् सेयिङ्ग् त्वं बालकः, त्वं पुस्तकम्। अगेन् अहं बालकः मम पुस्तकम्, एषः बालकः एतस्य पुस्तकम्, सः बालकः तस्य पुस्तकम्, त्वं बालकः तव पुस्तकम्। सो वाट् आर् द फोर् पेर्स्? अहं मम, अहं मम, एषः एतस्य, सः तस्य, त्वं त्वं तव, अहं मम, एषः एतस्य, सः तस्य, त्वं तव। Okay, is it clear to you? Four pairs. Can anybody repeat? I'll take the name. Idanim kaho vadati. Okay, vadatu, vadatu.
Eshaha. Etasya. Aham. Asya. Saha.
Aham. Aham.
Aham. Asya.
मम,
अहं मम,
मम,
मम, सः, तस्य, त्वं, तव,
त्वं, तव। बहु सम्यक्, बहु सम्यक्। दीपक् महोदय वदति वा पुनः एकवारम्?
अहं मम, एषः एतस्य, सः तस्य, त्वं तव।
वेरि नैस्। See, later on we will write everything. We have a chart also. Okay, everything is given. First of all, try to remember orally. One more person will repeat. Dipti Bhagini, vadati va krupaya.
Aham balakah mama pustakam. Esha balakah etasya pustakam. Balakah tasya pustakam. त्वं बालकः तव पुस्तकम्।
बहु सम्यक्। राधा भगिनी वदति वा?
अहं मम, एषः एतस्य, सः तस्य, त्वं तव।
ओके, जस्ट् ट्रै टु रिमेम्बर् दिस् फोर् पेयर्स्। अगेन् वी आर् गोयिङ्ग् टु रिपीट्, ओके, डोण्ट् वरि। नौ कमिङ्ग् टु द सेकेण्ड् पिक्चर्। किं दृश्यते तत्र? बालकः तु अस्ति एव, परन्तु हू एल्स् इस् देयर् विथ् हिम्? वन् गर्ल् एण्ड् शी इस् आल्सो होल्डिङ्ग् अ बुक्। ओके, सो लेट्स् टाक् अबौट् हर्। एषा बालिका, एषा बालिका, एषा बालिका किञ्चित् दूरे अस्ति चेत् सा बालिका, एषा बालिका किञ्चित् दूरे अस्ति चेत् सा बालिका, एषा बालिका एतस्याः पुस्तकम्, एषा बालिका एतस्याः पुस्तकम्, सा बालिका तस्याः पुस्तकम्, सा बालिका तस्याः पुस्तकम्, एषा बालिका एतस्याः पुस्तकम्, सा बालिका तस्याः पुस्तकम्। इदानीं बालिका किं वदति? अहं बालिका मम पुस्तकम्, अहं बालिका मम पुस्तकम्। एण्ड् वाट् वी आर् सेङ्ग्? त्वं बालिका तव पुस्तकम्। ओके, वेन् वी लुक् एट् अ बाय् वी आर् सेङ्ग् त्वं बालकः तव पुस्तकम्। सेम् वे वेन् वी लुक् एट् अ गर्ल् वी आर् सेङ्ग् त्वं बालिका तव पुस्तकं। देर् वोण्ट् बि एनी चेञ्ज्। बालकः किं वदति? अहं बालकः मम पुस्तकं। बालिका किं वदति? अहं बालिका मम पुस्तकं। परन्तु लुकिङ्ग् एट् द गर्ल् वाट् वी आल् आर् सेङ्ग्? एषा बालिका एतस्याः पुस्तकम्, सा बालिका तस्याः पुस्तकम्। सो टु मोर् पेर्स् वी हेव् एडिङ्ग्। प्रथम अहं मम, त्वं तव, एषः एतस्य, सः तस्य, एषा एतस्याः, सा तस्याः। प्रथमतः तु एषा बालिका एतस्याः पुस्तकं, सा बालिका तस्याः पुस्तकम्। ओके, जस्ट् रिपीट् दिस् टु पेर्स्। कः? अम्बिकापति महोदय वदति वा?
अहं मम पुस्तकं, एषः बालकः एतस्य पुस्तकं, सा बालकः तस्य पुस्तकम्, एषाः बालिका,
तत्र एषा एव अस्ति महोदय, एषा,
एषा,
एषा बालिका,
एषा बालिका एतस्याः पुस्तकं, सा बालिका तस्याः पुस्तकं, त्वं बालिका तव पुस्तकं, त्वं बालिका तस्य पुस्तकं।
बहु सम्यक् महोदय, बहु सम्यक्, धन्यवादः। तव पुस्तकं, तव पुस्तकं भवति। शिवमहोदय पुनः एकवारं वदति वा? शिवमहोदय अस्ति वा अत्र? अस्तु, अगस्त महोदय वदति वा?
आम् भगिनि,
वदतु
कृपया। अहं बालिका मम पुस्तकं, सा बालिका तस्याः पुस्तकम्, एषा बालिका एतस्याः पुस्तकं, त्वं बालिका तव पुस्तकम्।
त्वं बालिका
तव, तव पुस्तकं,
तव पुस्तकं, सम्यक्। अनन्तरम् एषः बालकः,
एषा बालिकः एतस्याः पुस्तकम्।
हा, तत्तु अभवत्। एषः बालकः कथं भवति? एषः बालकः
एषः बालकः एतस्य पुस्तकम्।
किञ्चित् दूरे अस्ति चेत् सः बालकः तस्य पुस्तकं नो सम्यक् अस्ति बहु सम्यक् अस्ति महोदय बहु सम्यक्
धन्यवादः
धन्यवादः ओके सो वाट् वी हेव् लर्न्ड् राइट् नौ अहं
धन्यवादः भगिनि दिस् इस् शेर् आर् यू हियरिङ्ग् मी
यस् यस् ऐ केन् हियर् यू महोदय
Yes, sorry, I had a problem just now.
अस्तु महोदय चिन्ता मास्तु शिवमहोदय भवान् एकवारं वदति वा कृपया
Sorry, I was just at a point where you did the pairs. Aham, mama, eshah, ekasya, tah, tasya. त्वं तव एषा एतस्याः सा तस्याः
बहु सम्यक् महोदय बहु सम्यक् बहु सम्यक् उत्तमम् उत्तमम्
सारी ऐ लास्ट् अप् दट् पायिण्ट् सो ऐ एम् नौ काचिङ्ग् अप् थेङ्क् यू
चिन्ता मास्तु महोदय चिन्ता मास्तु बहु सम्यक् प्रकारे भवान् उक्तवान् सो वाट् एवर् वी हेव् लर्न्ड् रैट् नौ सम्बन्ध अहं मम त्वं तव एषः एतस्य सः तस्य एषा एतस्याः सा तस्याः सो दिस् इस् आल् रिलेटेड् बाय् षष्ठी विभक्ति एतस्य तस्य एतस्याः तस्याः मम तव दीस् आर् आल् षष्ठी विभक्ति फार्म्स् Okay, later on I am going to show you the chart. Now this is with reference to one balakah, singular. Okay, ekah balakah, eka balika. Idanim siti ka bhavati pashyantu. Idanim ka siti, kim drushyate tatra? Chitra varnanam karotu, kopi. किं दृश्यते चित्रे
बालकाः एक बालिका एका बालिका एण्ड् ऐ नाट् शुर् द्वं द्वयो बालः बाले द्वौ बालौ बालौ
एका बालिका बहु सम्यक् द्वौ बालकौ एका बालिका ओके नौ लुकिङ्ग् एट् दीस् टु बाय्स् लुकिङ्ग् एट् दीस् टु बाय्स् ओके लेट् अस् सी दीस् पिक्चर् सो इट् विल् बि वेरि क्लियर् या सो किं दृश्यते अत्र किं दृश्यते तिस्रः बालिकाः There are three girls, right? And one boy. Okay. One boy and three girls. Ekah balakah, tisrah balika. Now, this boy looking at these three girls, and then all these girls are holding books in their hands. So, what this boy is going to say? Pratham tatu, balakah vadati, अहं बालकः मम पुस्तकम् अहं बालकः मम पुस्तकम् एण्ड् देन् ही सेयिङ्ग् ताः बालिकाः ओके सो ताः बालिकाः एण्ड् देन् कम्स् द नेक्स्ट् पार्ट् वाट् इस् देट् talking about books
tasyah pustaka
tasam pustakani okay tasam pustakani tah balikah tasam pustakani and if we imagine they are sitting along with us समीपे सन्ति चेत् एताः बालिकाः एतासां पुस्तकानि एताः बालिकाः एतासां पुस्तकानि दूरे स्थिते ताः बालिकाः तासां पुस्तकानि लेट् अस् अगेन् रिपीट् द होल् थिङ्ग् बालकः वदति अहं बालकः मम पुस्तकं बालिका अपि वदति एका बालिका अत्र सा वदति अहं बालिका मम पुस्तकं बालकः वदति लुकिङ्ग् एट् द गर्ल् बालकः वदति त्वं बालिका तव पुस्तकं त्वं बालिका तव पुस्तकम् एण्ड् नौ द बाय्स् टेलिङ्ग् अस् द बाय्स् लुकिङ्ग् एट् अस् एण्ड् टेलिङ्ग् अस् सा एषा बालिका एतस्याः पुस्तकम् गर्ल् इस् लुकिङ्ग् एट् अस् एण्ड् टेलिङ्ग् अस् एषः बालकः एतस्य पुस्तकम् अहं बालकः मम पुस्तकं त्वं बालिका तव पुस्तकम् एषा बालिका एतस्याः पुस्तकं बालिका वदति एषः बालकः एतस्य पुस्तकम् एण्ड् नौ द नेक्स्ट् डे लुकिङ्ग् एट् पायिण्टिङ्ग् एट् दिस् त्री गर्ल्स् बालकः वदति एताः बालिकाः एताः बालिकाः एतासां पुस्तकानि एतासां पुस्तकानि सो अगेन् नौ हौ मेनि पेर्स् डु वी हाव् अहं मम त्वं तव एषः एतस्य सः तस्य एषा एतस्याः सा तस्याः एताः एतासां ताः तासाम् ओके हु वुड् लैक् टु रिपीट् आल् द पेर्स् वन्स् अगेन्
वदामि वा भगिनि जयन्ति
वदतु वदतु भगिनि
अहं मम एषः एतस्य सः तस्य त्वं तव एषा एतस्याः सा तस्याः ताः तासाम् एताः एतासाम्
बहु सम्यक् भगिनी बहु सम्यक् बहु सम्यक् वेरि नैस् वेरि नैस् अथर्वमहोदय वदति वा इदानीं पर्यन्तम् एकवारमपि न उक्तवान् आसीत् अथर्वमहोदय ओके शैलेन्द्रमहोदय अस्ति वा I can't see the names here. Okay, who else has not answered up till now? Shrivat Samohodaya Astiva?
Namaste, Bhagini.
Namaste. Vadatu Kupaya.
Aham mama eshaha etasya saha tasya tvam tava esha एतस्याः सा तस्याः एताः एतासां ताः तासां
बहु सम्यक् बहु सम्यक् महोदय धन्यवादः
धन्यवादः
इदानीं राधा भगिनी
आं
भगिनी उक्तवान् आसीत् इदानीं पर्यन्तम् इतोपि एका द्वितीया अपि राधा भगिनी अस्ति कृपया वदति वा
ओके अहं मम एषः एतस्य सः तस्य त्वं तव एषा एतस्याः सा तस्याः ताः तासाम् एताः एतासाम्
बहुशं बहुशं
धन्यवादः.
इदानीं कमिङ्ग् टु द नेक्स्ट् पार्ट्. का स्थितिः अस्ति अत्र? चित्रवर्णनं करोतु. एनिबडि केन् आन्सर्. हौ मेनि बाय्स् एण्ड् गर्ल्स् ओवर् हियर्?
चत्वारि बालकाः बालिकाः.
चत्वारः बालकाः सन्ति, परन्तु तस्मिन् एषा बालिका. एका तु बालिका, एका बालिका अस्ति. अनन्तरं त्रीणि नपुंसकलिङ्गि कृते अस्ति. एका बालिका, त्रयः बालकाः. त्रयः बालकाः. ओके, सो जस्ट् लुक् एट् द बालिका. बालिका किं वदति? अहं बालिका, मम पुस्तकम्. नौ लुकिङ्ग् एट् वन् बाय् हु इस् स्टाण्डिङ्ग् नियर् टु हर्, शी सेयिङ्ग् एषः बालकः, एतस्य पुस्तकम्. किञ्चित् दूरे अस्ति चेत् लुकिङ्ग् एट् द अदर् बाय् शी सेयिङ्ग् सः बालकः, तस्य पुस्तकम्. नौ दिस् गर्ल् इस् रेफरिङ्ग् टु आल् त्री बाय्स् एण्ड् सेयिङ्ग् ते बालकाः, ते बालकाः. और् वी केन् से दे आर् स्टाण्डिङ्ग् नियर् न, सो वी केन् से एते बालकाः, एते बालकाः. नौ पायिण्टिङ्ग् टुवर्ड्स् बुक्स्. एतेषां पुस्तकानि, एतेषां पुस्तकानि. एते बालकाः, एतेषां पुस्तकानि. नो चेत् दूरे अस्ति, दूरे सन्ति चेत् ते बालकाः, तेषां पुस्तकानि. ते बालकाः, तेषां पुस्तकानि. समीपे सन्ति चेत् एते बालकाः, एतेषां पुस्तकानि. नौ अगेन् टु पेर्स् आर् एडेड्. अहं बालकः, मम पुस्तकं. त्वं बालिका, तव पुस्तकम्. एषः बालकः, एतस्य पुस्तकं. सः बालकः, तस्य पुस्तकम्. एषा बालिका, एतस्याः पुस्तकं. सा बालिका, तस्याः पुस्तकं. ते बालकाः, तेषां पुस्तकानि. एते बालकाः, एतेषां पुस्तकानि. एण्ड् देन् इन् दिस् पिक्चर् ताः बालिकाः, तासां पुस्तकानि. एताः बालिकाः, एतासां पुस्तकानि. ओके, नौ जस्ट् रिपीट् द होल् थिङ्ग् अगेन् रेफरिङ्ग् टु द बाय्स्. एते, एतेषां, ते, तेषां. कः वा का वदति?
वदति वा?
हा वदतु, वदतु.
ओके, एषः बालकः, एतस्य पुस्तकम्. अहं बालकः, मम पुस्तकं. सः बालकः, तस्य पुस्तकं. त्वं बालकः, तव पुस्तकम्. एषा बालिका, एतस्याः पुस्तकं. सा बालिका, तस्याः पुस्तकं. ते बालकाः, तेषां पुस्तकानि. एते बालकाः, एतेषां pustakani.
And then if you refer to this picture, then taha
taha balikaha tasam pustakani etaha balikaha etasam pustakani.
Bahu samyak, bahu samyak. Now something is left, something is left. What is that?
Tat tani tat etat tat.
Yes,
tvam. No, I did. Yeah,
then what is left? Just think on it.
Vayam, aham, vayam, vayam.
Vayam is left. Okay, vayam is left, right? Aham chhatraha, vayam chhatraha. Okay, so aham balakah, vayam balakah. Okay, so vayam balakah, these three boys, if we are referring to these three boys, it will be vayam balakah, right? But if we are referring to these three girls, they will also say vayam balikah. There won't be any change. And then again, vayam chhatrah asmakam pustakani. Same thing, vayam chhatrah asmakam pustakani. Vayam chhatrah asmakam pustakani. Vayam chhatrah asmakam pustakani. Now if this girl is telling to these three boys, or this particular boy is going to tell to these three girls, what? Yuyam chhatraha, yuyam chhatraha, yushmakam pustakani, yuyam chhatraha, yushmakam pustakani, yuyam chhatraha, yushmakam pustakani. Now just, I'm just repeating once again, just listen. Aham balakah mama pustakam, tvam balika tava pustakam. Aham balakah vayam balakah, aham balika vayam balikah. Aham balakah asmakam pustakani, aham balikah asmakam pustakani. Yuyam balika yushmakam pustakani, yuyam balakah yushmakam pustakani. Aham mama, tvam tava, vayam asmakam, yuyam युष्माकम्, एषः एतस्य, सः तस्य, एषा सा, एषाः एषाः एतस्याः, सा तस्याः, एते एतेषां, ते तेषाम्, एताः etasam, taha tasam. So many things we learned today. Now okay, further part, coming back over here, KK agatahatra. नूतनतया के आगतः, केन उक्तवन्तः? मुरली महोदय नमस्कारः, सावित्री भगिनी नमस्कारः, श्रूयते वा?
नमस्ते भगिनी.
नमस्ते, नमस्ते,
नमस्ते,
नमस्ते. वीणा भगिनी नमस्कारः.
भगिनी, आई एम जॉइनिंग युअर क्लास, दिस इज द फर्स्ट टाइम आई एम जॉइनिंग.
सावित्री भगिनी फर्स्ट टाइम आगच्छति. ओके,
यस यस मैम, आई एम जॉइनिंग फर्स्ट टाइम. आई वॉच टू प्रीवियस 3-4 क्लासेस, कुड नॉट वॉच फुल्ली. दिस इज द फर्स्ट टाइम आई एम जॉइनिंग.
बहु सम्यक्, स्वागतम भवतः.
थैंक यू.
नूतनतया मुरलीमहोदय मुरलीमहोदय श्रूयते वा मुरलीमहोदय एकवारं पुनरावर्तनं करोति वा एकवारं वदति वा इदानीं पर्यन्तं वयं किं पठितवन्तः ते
I'm sorry, ma'am. Do you want me to repeat what just happened? What we just learned now?
Prayatnam karoti va?
Ha ha ha. Ha.
Prayatnam karoti.
Ha. Aham balakaha mama mama pustakam tvam balika tava pustakam saha balakaha tasya कम एषा बालिका एतस्याः पुस्तकम् एषाः बालका एतस्या पुस्तकम्
तत्र एषाः इति नास्ति एषा एव एषा एव
एषा
तत्र विसर्ग नास्ति एषा बालिका
एषा बालिका फोर मेन फोर for when it should be
when we are saying esha balika it is etasyah tatra esha etasyah okay
esha etasyah this is for female of ma'am
aam 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 aam
it's for female okay sa balika tasyah बालिका
तस्याः पुस्तकम्
तस्याः पुस्तकम् ताः बालिका तासां पुस्तकं
बहु तासां पुस्तकानि भवति खलु
तासां पुस्तकानि एताः एताः बालिका एतासां पुस्तकानि
बहु सम्यक् बालकानां कृते किं भवति ते बालकाः
ते बालक तेषां पुस्तकं
पुस्तकानि तेषां पुस्तकानि सम्यक् अनन्तरं
एते बालक एते बालका एतेषां पुस्तकानि साः बालिका सा बालिका तस्याः पुस्तकम्
अहम् अस्ति चेत् अहम्
अहं बालिका मम पुस्तकम्
अनन्तरं वयं सर्वे मिलित्वा कथम् भवति वयं
वयं छात्राः अस्मान् छात्राः
अस्माकं पुस्तकानि
यूयं छात्राः युष्माकं पुस्तकानि
बहु सम्यक् महोदय बहु सम्यक् धन्यवादः धन्यवादः सावित्री भगिनी प्रयत्नं करोति वा सावित्री भगिनी
हा भगिनी प्रयत्नं करोतु
करोतु
एषः बालकः एतस्य पुस्तकम् अहं छात्राः वयम् अहं छात्राः वयम् अहं छात्राः वयम्
अहं छात्रा मम पुस्तकम्
अहं छात्रा वयं
मम पुस्तकं वयं छात्राः अहं छात्रः वयं छात्राः मम पुस्तकं
छात्राः मम
पुस्तकानि
अस्माकं पुस्तकानि सा छात्राः तासां पुस्तकं त्वं बालकाः तव पुस्तकम् एषा बालकाः एतस्याः पुस्तकं सः बालकाः तस्याः पुस्तकम् एते बालकाः एतेषां पुस्तकम् अहं बालकाः वयं पुस्तकं यूयं
वयं पुस्तकमिति न अस्माकं पुस्तकानि
अस्माकं पुस्तकं यूयं बालकाः युष्माकं पुस्तकम् एषा बालिकाः एतस्याः पुस्तकं सा बालिकाः तस्याः पुस्तकम्
जस्ट् वन् करेक्षन् तत्र सा बालिका एवं भवति सा बालिका
सा
बालिका बालिका पुरते विसर्गः नास्ति यदा आकार यत्र श्रूयते आकारान्तस्त्रीलिङ्गे पश्यन्तु अत्र मम नाम नीता मम नाम नीताः इति नास्ति मम नाम नीता सा राधा सा मायरा ओके तत्र पुरतः विसर्गः न सा बालिका
सा बालिका तस्याः पुस्तकं
तत्र विसर्गः आगच्छति तस्याः पुस्तकं तस्य भवति चेत् किं भवति तस्य भवति चेत् पुल्लिङ्गि सः बालकः तस्य पुस्तकम्
ओके
सो इन् कन्क्लूजन् वाट् डु वि से ओके पुल्लिङ्गि एषः एतस्य सः तस्य स्त्रीलिङ्गि एषा एतस्याः सा तस्याः
तस्याः
ओके पुल्लिङ्गि एते
एतेषां
पुल्लिङ्गि बहुवचनं कथं भवति एते एतेषां तेषां पुल्लिङ्गि बहुवचनम् अनन्तरं स्त्रीलिङ्गि बहुवचनं कथं भवति ताः ओके स्त्रीलिङ्गि एकवचनान्तरूपं तत्र विसर्गः नास्ति परन्तु स्त्रीलिङ्गि बहुवचनान्तरूपं ताः एताः के भगिनि
एताः
एतासाम् एतासाम्
एतासाम्
एवं भवति बहु सम्यक् प्रकारेण भवती उक्तवती सम्यक् अस्ति इदानीं वीणा भगिनी पठितुं शक्नोति वा अद्य वीणा भगिनी
अवश्य भगिनी हा
सो नौ लेट् इस् वाट् एवर् वी हाव् लर्न् टुडे अण्ड् वाट् एवर् वी हाव् प्राक्टिस् ओरेडि सेम् थिङ्ग् लेट् अस् सी इन् द चार्ट्
Are you going to share the screen, Bhagini?
Yes, yes, I'll be sharing.
Yeah.
Veena Bhagini, ekavaram pathatu. Yes, this is the thing. This is the thing which we have learned. And same thing is there in our worksheet. Okay. So, Veena Bhagini, drishyateva?
Drishyami.
Rupaya pathatu. Pathatu.
एतत् पुल्लिङ्गे एषः एतस्य एते
तत्र कथं पठनीयं पश्यतु एतद् पुल्लिङ्गे प्रथमा एकवचनम् एषः षष्ठी एकवचनम् एतस्य एवं पठतु तेन स्पष्टता भवति
एतत् पुल्लिङ्गे प्रथम एकवचनम् एषः षष्ठी एकवचनम् एतस्य प्रथमा बहुवचनम् एते षष्ठी बहुवचनम् एतेषाम् एतत् स्त्रीलिङ्गे प्रथमा एकवचनम् एषा षष्ठी एकवचनम् एतस्याः प्रथमबहुवचनम् एताः षष्ठी बहुवचनम् एतासाम् एतत् नपुंसकलिङ्गे प्रथमा एकवचनम् एतत् एतद् षष्ठी एकवचनम् एतस्य प्रथमा बहुवचनम् एतानि षष्ठी बहुवचनम् एतेषाम्
सम्यक् जस्ट् वन् मिनिट् सि हियर् इफ् यु केन् सी पुल्लिङ्गे नपुंसकलिङ्गे तत्र प्रथमा एकवचनं तस्मिन् भिन्नता वर्तते. पुल्लिङ्गे प्रथमा एकवचनं किमस्ति? एषः. नपुसकलिङ्गे किमस्ति? एतत् वा एतद्. रूपद्वयं तत्र विकल्पेन आगच्छति, आप्शनल्. एतद् अपि भवति, एतद् अपि भवति. परन्तु तत्र षष्ठी एकवचनं समान एव, एतस्य एतस्य एव भवति. पुल्लिङ्गे अपि एतस्य भवति, नपुसकलिङ्गे अपि एतस्य भवति. तथैव तत्र एतत् शब्दस्य पुल्लिङ्गे प्रथमा बहुवचनम् एते भवति, परन्तु नपुसकलिङ्गे किं भवति? एतानि. एतत् पुस्तकम्, एतानि पुस्तकानि. एतत् पुष्पम्, एतानि पुष्पाणि. एतत् पर्णम्, एतानि पर्णानि. यावत्. परन्तु षष्ठी बहुवचनान्तरूपं समान एव. एतत् पुल्लिङ्गे षष्ठी बहुवचनम् एतेषां, तथैव नपुसकलिङ्गे षष्ठी बहुवचनम् एतेषाम्. अस्तु भगिनी, सर्वेषाम् अवगमनम्. ओके, अग्रिमे पठतु. तत् शब्दस्य पठतु.
पुल्लिङ्गे प्रथम एकवचने सः, षष्ठी एकवचनं तस्य, प्रथमा बहुवचनं ते, षष्ठी बहुवचनं तेषां. तत् स्त्रीलिङ्गे प्रथमा एकवचनं सा, षष्ठी एकवचनं तस्याः, प्रथमा बहुवचनं ताः, षष्ठी बहुवचनं तासाम्. तत् नपुंसलिङ्गे प्रथम एकवचनं तत् वा तद्, षष्ठी एकवचनं तस्य, प्रथमा बहुवचनं तानि, षष्ठी बहुवचनं तेषाम्.
अस्मद्विषये पठति वा? अस्मद्युष्मत्.
अस्मत् त्रिषु लिङ्गेषु प्रथमा एकवचनं अहं, षष्ठी बहुवचनं मम, या मे, प्रथमा बहुवचनं वयं, षष्ठी बहुवचनं अस्माकं वा
नः इति अस्ति. इदानीं मे वा नः वा किञ्चित् वयम् अनन्तरं पश्यामः. इदानीं मम अस्माकं तावत्पर्यन्तमेवं वयं पठामः. नः इति रूपमस्ति, तत् गीतायाम् अपि भवति, तत्र श्लोकेषु यदि कोऽपि जानति चेत् तत्र नः इति अस्ति, मे अपि अस्ति. परन्तु तत् वयम् अनन्तरं पश्यामः. युष्मद्विषये पठति वा?
हा, अवश्यं. युष्मत् शब्द त्रिषु लिङ्गेषु प्रथमा एकवचनं त्वं, षष्ठी एकवचनं तव वा ते, प्रथमा बहुवचनं यूयं, षष्ठी बहुवचनं युष्माकम्.
नो, यस्, धन्यवादः भगिनी, धन्यवादः. सो वाट् वी हेव् टु रिमेम्बर् हियर् इस् सी द वेरि फस्ट् कालम्, एतद्, तद्, अस्मद्, युष्मत्. See, these are the main words, right? We know avam, we know mama, and then vayam, asmakam, tvam, tava, yuyam, yushmakam. But the main word, that is known as pratipadikam. Just try to understand. I mean, it doesn't matter if you don't remember. Asmat iti pratipadikam asti. Asmat pratipadikasya rupani bhavanti. Prathama ekavachane aham bhavati. षष्ठी एकवचने मम भवति, प्रथमा बहुवचने वयं भवति, षष्ठी बहुवचनान्तरूपम् अस्माकमस्ति, युष्मत् प्रातिपदिकस्य तथैव, त्वम् अस्ति एकवचनान्तरूपं प्रथमा विभक्त्यायां, षष्ठी तव, प्रथमा बहुवचनम् अस्ति यूयं, षष्ठी बहुवचनमस्ति युष्माकं. तथैव एतद् इति प्रातिपदिकं, द मेन् वर्ड्, एषः, एषा, एतद् अनुक्रमे पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे रूपाणि, तस्य षष्ठीवचनान्तरूपं, प्रथमा बहुवचनान्तरूपं षष्ठि बहुवचनान्तरूपम् एतद् शब्दस्य एतत् प्रातिपदिकस्य तथैव एतदिति किमर्थम् अस्माकं समीपे अस्ति चेत् अस्माकं समीपे पुल्लिङ्गे अस्ति चेत् एषः एते भवति स्त्रीलिङ्गे अस्ति चेत् एषा एताः भवति नपुंसकलिङ्गे अस्ति चेत् एतत् एतत् एतानि भवति किञ्चित् दूरे अस्ति चेत् किमस्ति तद् इति प्रातिपदिकं तत्र किं भवति सः ते सा ताः तत् तानि एतानि रूपाणि सन्ति नौ लेट् अस् गो फार् द एप्लिकेशन् बट् बिफोर् देट् लेट् हौ क्वीज् आल् आर् रेडि फार् क्वीज् रेपिड् फ्रैर् इस् रेडि
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 आम् बेनि रेडि
आम् भगिनि
आल् आर् रेडि nice of you okay now what I will do we take the names rapid fire very nice first Augustu Mahodaya asmat shabdasya shashti bahuvachananta rupam asmat shabdasya shashti bahuvachananta rupam
षष्ठि बहुवचनं वयं
षष्ठी भवति चेत् अस्माकं सत्यं वयं किं भवति प्रथमा बहुवचनान्तं षष्ठी भवति चेत् अस्माकम् ओके वयं छात्राः अस्माकं षष्ठी बहुवचने अस्माकं पुस्तकानि अस्तु अस्तु इदानीं भवान् एव वदतु युष्मत् शब्दस्य एकवचनान्तरूपम् युष्मत् प्रथमा एकवचनं
त्वं
तव ऐम् सोरि त्वं
षष्ठी सोरि
न यु आर् रैट् सर् ऐ एम् राङ्ग् प्रथमा एकवचनान्तं त्वम् एव भवति षष्ठी तव भवति ओके यु आर् अब्सल्युट्लि रैट् सर् ओके ओके सम्यक् इदानीं दीपक् महोदय आर् यु रेडि दीपक् महोदय आर् यु रेडि ओके ओके तद् प्रातिपदिकस्य स्त्रीलिङ्गि एकवचनान्तरूपम् तद्
सः
सा स्त्रीलिङ्गि ओके पुल्लिङ्गि एकवचनान्त बहु सम्यक् इदानीं तत् प्रातिपदिकस्य एव षष्ठी बहुवचनान्तरूपं षष्ठी बहुवचनान्तरूपं
तस्याः तस्य
तासां भवति तस्याः षष्ठी बहुवचनान्तं न सो तासाम् इति भवति तेषाम् इति भवति अस्तु सि तद् प्रातिपदिकं सः पुल्लिङ्गि तद् प्रातिपदिकं सः पुल्लिङ्गि एकवचनान्तं तस्य इति पुल्लिङ्गि एकवचनान्तं षष्ठी तथैव सा स्त्रीलिङ्गी एकवचनान्तं तस्याः स्त्रीलिङ्गी षष्ठी एकवचनान्तं तथैव ताः स्त्रीलिङ्गी बहुवचनान्तं तासां स्त्रीलिङ्गी ताः स्त्रीलिङ्गी प्रथमाविभक्ति बहुवचनान्तं तासां स्त्रीलिङ्गी षष्ठीविभक्ति बहुवचनान्तम् अस्तु महोदय सत्यमस्ति ओके दीप्तिभगिनी सज्जा वा ओके एतत् प्रातिपदिकस्य पुल्लिङ्गि बहुवचनान्तं
पुल्लिङ्ग
पुल्लिङ्गि बहुवचनान्तं प्रथमविभक्ति षष्ठीविभक्ति एवं
एतत् प्रथम एकवचनं एषः षष्ठी बहुवचनम् एतेषां
पुल्लिङ्गि
पुल्लिङ्गि एतेषां षष्ठी बहुवचनं
बहुवचनं षष्ठी बहुवचनं ओके
एण्ड् प्रथम एकवचनम् एषः
सम्यक् प्रथम एकवचनं एषः षष्ठी एकवचनं षष्ठी एकवचनं किं भवति भगिनि
एतस्य
एतस्य सम्यक् वेरि नैस् अम्बिकापतिमहोदय अम्बिकापतिमहोदय
आं भगिनि
युष्मत्प्रातिपदिकस्य युष्मत्प्रातिपदिकस्य स्त्रीलिङ्गि बहुवचनान्तरूपं षष्ठी
युष्माकं
स्त्रीलिङ्गि पुल्लिङ्गि नपुंसकलिङ्गि सर्वाणि वदन्तु
युष्माकं युवां युष्माकं
युष्माकमेव भवति बहु सम्यक् युष्माकं 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 तथैव भवति सम्यक् सम्यक् महोदय इदानीं वन् मोर् क्वेशन् फार् यू एतत् प्रातिपदिकस्य स्त्रीलिङ्गि एतत् प्रातिपदिकस्य स्त्रीलिङ्गि एकवचनान्तं प्रथमा षष्ठी
एतस्याः
सम्यक् बहुवचनान्तम्
एतेषां
तत्र श्रीलिङ्गे अस्ति खलु एताः एताः
एताः एतस्याः
एतासाम्
एतासां
श्रीलिङ्गे बहुवचनम् एतासाम् ओके सम्यक् सम्यक् अस्ति सो वन् मोर् क्वेशन् वन् मोर् पार्टिसिपेण्ट् एण्ड् देन् विल् गो फार् द एप्लिकेशन् पार्ट् जयन्ती भगिनी सज्जा वा जयन्ती भगिनी ओके एतत् प्रातिपदिकस्य एतत् प्रातिपदिकस्य नपुंसकलिङ्गि षष्ठी एकवचनं षष्ठी बहुवचनं
ओके एतत् एतस्य बहुवचनरूपं प्रथमाविभक्ति एतानि तानि
तत्तु प्रथमाविभक्ति
भगिनि
षष्ठी विभक्ति
षष्ठी एतस्य एतानि
एतेषां खलु
आं भगिनि सोरि
एतेषां सो दिस् इस् हौ यू केन् आस्क् युवर् सेल्फ् दिस् इस् जस्ट् फोर् युवर् प्राक्टीस् कीप् आन् आस्किङ्ग् युवर् सेल्फ् रैट् सो तेन किं भवति दृढीकरणं भवति मनसि अस्माकं मनसि तेनैव दृढीकरणं भवति ओके बहु सम्यक् इदानीं लेट् अस् गो फार् द एप्लिकेशन् पार्ट् वाट् इस् दट् एप्लिकेशन् पार्ट् लेट् अस् सी इन् एप्लिकेशन् वी हौ टु what we are going to do here is natya rupantaranam there will be a drama I will become a shopkeeper vegetable vendor aapanikah shak aapanikah I'm going to sell vegetables shakam shakani shakam is shakani is it to vegetables I'm a vegetable vendor and then one by one you have to come to my shop and visit my shop and purchase something from me shakani to take him everybody likes na vegetables yes or no
bagini
so now I'm opening my shop you will be coming here one by one and first of all who will come I'll take the names selvi bagini will come to my place selvi अनन्तरम् आगच्छति श्रीवत्समहोदय सेल्वी भगिनी प्रथम आगच्छति, अनन्तरं श्रीवत्स महोदय आगच्छति, अनन्तरं लक्ष्मी भगिनी आगच्छति. ओके, आगच्छन्तु सर्वे. ऐ एम् ओपनिङ्ग् मै शाप्, स्क्रीन् शेर् करोमि अत्र. एक दृश्यते सो हियर् ऐ एम् सेलिङ्ग् वेजिटेबल्स्. कानि कानि शाकानि अस्ति तत् एकवारं सर्वे पश्यन्तु. मम समीपे किं किम् अस्ति अत्र दृश्यते, वदतु किं किम् अस्ति. बिफोर् सेल्वी भगिनी कम्स् टु मै शाप्, लेट् अस् टेल् हर् वाट् आर् द थिङ्ग्स् अवेलेबल् सो देट् यु आर् गोयिङ्ग् टु गैड् हर्. वाट् इस् अवेलेबल् देर् टेल् अ कम् आन् वाट् इस् दियर्
आलुकम् आलुकम्
अस्ति. अनन्तरं किम् अस्ति, मूलकं मूलकम्. अनन्तरं
किम्
कारवेल्लम् कारवेल्लम् अस्ति. अनन्तरं वाट् इस् देर् एट् द टाप्
भिण्डि बट् ऐ डोण्ट् नो वाट्
भिण्डि इट् इस् भिण्डि सेम् सेम् नेम् अभूय अण्ड् देन् मेनि मोर् सि दृश्यते किं किम् अस्ति वदतु.
ऐ डोण्ट् नो वाट् इट् इस् फोर् केबेज् सोरि.
Okay, cabbage is parnashakam or kapishakam. So here okay. The idea is make yourself familiar with the conversation as well as with the names of vegetables and then at random whatever we have learned today, tasya, etasya, tasyaha and other things. Okay, so that is the idea. Let us do that. So cabbage is parnashakam or kapishakam. Anantara, what else do you see here?
वृन्तशाकं
यस्
वृन्तशाकं
तत्र दिस् वन् ब्रिञ्जल् इस् वृन्ताकं वृन्ताकं वृन्ताकम् इस् ब्रिञ्जल्. अनन्तरं अनियन् वाट् डु वि काल् एनिबडि नोस् पलाण्डुः पलाण्डुः. Okay, then this one is pumpkin, that is kushmandaha, kushmandaha, right?
Kushmandaha,
kushmandaha. This is ginger, that is adrakam, adrakam. This one is spinach, palki it is, palki. This one is bottle gourd, bottle gourd. Guard. Can you see this? Bottle guard. That is koshataki. Doesn't matter if you don't remember. Slowly, slowly, while discussing about it, we will try to remember. Koshataki. That is bottle guard. And then this one, what do you call this? Mint it is.
Mint.
Mint. Mint. So that is ajagandha. Ajagandha. Ajagandha paranani. Eva masti. Then this one I told you, brinjal is vruntakam. And then this one, mahamarichika. Mahamarichika.
Which one?
Capsicum. Capsicum.
Okay.
Mahamarichika. And then this red one, that is tomato, raktafalam.
Raktafalam.
And then I have many more, I'll show you. Then this is, what is this at the top?
Cucumber.
Marichi. Sorry, cucumber is karkati. Karkati. And then this one? Cauliflower? Gojivha. Gojivha. And then this one, chili is marichika. Again. Marichika. Right? So, these are the, and then, yeah, I have one more. I have brought for you. And then this is, what is this?
Carrot.
Grunjanam. Grunjanam. Grunjanam is good for health, you know, no? Okay, so now. Shakani swasthya pradayini. Okay, now come. Who is coming to my shop? Selvi Bhagini. Agachatu Selvi Bhagini. Bhavati ki michati.
Aham vrittaham ichati. Ichami.
Kim ichati?
Vrittaham ichami.
Vruntakam va? Brinjil vaktum ichati. Kim vaktum ichati bhagini?
Vrittaham aham ichami.
वृन्ताकम् इच्छति अस्तु भवती जानति वा तस्य कति रूप्यकाणि जानति वा
कति रूप्यकाणि
तस्य कति रूप्यकाणि जानति वा
जानामि
पृच्छतु कथम् एतस्य कति रूप्यकाणि पृच्छतु
एतस्य नव
कति रूप्यकाणि
नव रूप्यकाणि
भवती एव वदति वा नव रूप्यकाणि न अहं तु पञ्चदशरूप्यकाणि इच्छामि ददाति वा ददाति बार्गेन् न कर्तुम् इच्छति वा अस्तु अस्तु भवत्याः समीपे स्यूतः अस्ति वा स्यूतः अस्ति वा भवत्याः समीपे
स्यूतः अस्ति
स्यूतः अस्ति एवं प्लास्टिक् स्यूतः न न न न भगिनि प्लास्टिक् स्यूतः न इच्छामि वस्त्रम् उपयोजितुम् अस्ति वा वस्त्रसूतमस्ति वा वस्त्रसूतः अस्ति वा
वस्त्रं सूतकम् अपि अस्ति
अस्ति अस्ति अस्ति अस्ति एवं भवती इतोपि किम् इच्छति वा इतोपि किम् आवश्यकमस्ति वा
I can't understand.
Astu, astu, astu. Diva? Bitter gourd? Na Shweti? Bitter gourd, karavelam ichchati va? Karavelam ichchati?
Ichchami.
कारवेलम् इच्छति अस्तु इदानीं तिक्तं गृहे खादन्ति वा सर्वे कारवेलं तु तिक्तमस्ति देट् इस् बिटर् इन् टेस्ट् भवत्याः गृहे सर्वे तिक्तं खादति वा आम्
सर्वे खादन्ति
सर्वे खादन्ति उत्तमम् उत्तमं भगिनी अहं स्यूते सर्वाणि स्थापयामि धनं ददातु कृपया स्वीकरोतु कृपया स्वीकरोतु से कृपया
कृपया स्वीकरोतु
बहु सम्यक् भगिनी धन्यवादाः धन्यवादाः ओके इदानीम् आगच्छति श्रीवत्समहोदय श्रीवत्समहोदय नमो नमः किम् इच्छति भवान् समीपे एतानि शाकानि अस्ति एतानि
अहं कूष्माण्डम् इच्छामि
कूष्माण्डम् इच्छति वा एकम् एव इच्छति वा भवान्
कूष्माण्डम् अनि आर्द्रकम्
अद्रकमपि इच्छति आद्रकम् आद्रकं कुष्माण्डः कुष्माण्डः इच्छति आद्रकम्
आद्रकम्
द्वौ कुष्माण्डौ नास्ति वा द्वौ कुष्माण्डौ स्वीकरोतु भगवान् न एकः एव वा
कदि हौ मच् इट् इस् लैक् कति रूप्यकाणि एकः
कति
रूप्यकाणि एकः कुष्माण्डः कति रूप्यकाणि
बहु सम्यक् बहु सम्यक् नौ हौ टु फ्रेम् वाट् एवर् वी हाव् लर्न् टुडे एतस्य कुष्माण्डस्य कति रूप्यकाणि ओके देट् इस् द थिङ्ग् विच् वी हाव् लर्न् टुडे एतस्य ओके सम्बन्धं षष्ठीरूपम् एतस्य कुष्माण्डस्य कति रूप्यकाणि
एतस्य कूष्माण्डस्य कति रूप्यकाणि
विंशतिरूप्यकाणि ददातु भवान् अस्तु इदानीम् इतोपि किम् इच्छति मरीचिका इच्छति वा
मरीचिका इच्छामि एतस्याः एतस्याः मरीचिकाः
मरीचिकायाः एतस्याः कति रूप्यकाणि इति वदतु
एतस्याः मरीचिकायाः कति रूप्यकाणि
बहु सम्यक् दशरूप्यकाणि ददातु भवतः समीपे स्यूतः अस्ति वा
अस्ति मम समीपे वस्त्रस्यूतः अस्ति
बहु सम्यक् वस्त्रस्यूतः एव उपयोजयतु अन्ये मा अस्तु भवान् कर्कटी इच्छति वा
आं भगिनि
कर्कटी इच्छति
एषा कर्कटी कति रूप्यकाणि
एषा कर्कटी एतस्याः कति रूप्यकाणि एवम् एतस्याः कति रूप्यकाणि
एतस्याः एषा कर्कटी एतस्याः कति रूप्यकाणि
किलो द्वयं स्वीकरोतु भवान् चलति वा किलो द्वयं दास्यामि स्वीकरोति वा
ये आम्
सो हौ टु रियाक्ट् न किलो द्वयं मा इच्छा न इच्छामि किलो द्वयं किलो द्वयं न इच्छामि अर्ध
किलो द्वयं
न इच्छामि देट्स् आल् किलो द्वयं न इच्छामि नौ हौ केन् ऐ विल् ट्रै टु कन्विन्स् यु महोदय अतिपौष्टिकमस्ति महोदय कर्कटी अतिपौष्टिका कृपया स्वीकरोतु किलो द्वयम् सो इन् देट् केस् वाट् यु विल् से श्वः अपि आगमिष्यामि परश्वः अपि आगमिष्यामि इदानीं किलो द्वयं नास्तु ओके यु डोण्ट् वाण्ट् टु स्टोर् एट् अ सेम् टैम् रैट् सो हौ डु यु रियाक्ट् आन् दिस् इदानीं किलो द्वयं मास्तु अहं परश्वः आगमिष्यामि तदा क्रेष्यामि एवम् ओके सो दिस् इस् वाट् एवर् कम्स् इन् द मैण्ड् जस्ट् ट्रै टु प्राक्टिस् इट् ओके अस्तु इदानीं महोदय अत्र गृञ्जनम् अपि अस्ति मम समीपे गृञ्जनं तु दृष्टिवर्धकम् अस्ति
इच्छति
वा भवान्
आम् भगिनि इदं गृञ्जनं कति रूप्यकाणि
अत्र न्यूट्रिजेण्डर् अस्ति एतत् गृञ्जनम् एतानि गृञ्जानि ओके एतानि गृञ्जानि एतेषां कति रूप्यकाणि
एतानि गृञ्जानि एतेषां कति रूप्यकाणि
बहु सम्यक् इदानीं किलोद्वयं दास्यामि, किलोद्वयं दास्यामि, त्रिंशत् रूप्यकाणि ददातु, चलति वा?
आं भगिनि, कृपया स्वीकरोतु.
धन्यवादः. नौ वन् फोर् थिङ्ग् वी केन् एड्, सी वेन् एवर् वी गो टु वेजिटेबल् वेण्डर् हौ डु वी से उत्तमानि सन्ति वा, उत्तमानि सन्ति वा, रैट्?
यस्,
वी जस्ट् आस्क् देम्, नष्टानि नास्ति खलु, नाट् अ स्पोयिल्ड् वन्, उत्तमानि सन्ति वा, उत्तमानि एवं ददातु, लैक् देट् वी हव् टु कीप् आन् प्राक्टिसिङ्ग्. ओके महोदय,
ओके, धन्यवादः,
धन्यवादः. इदानीं कः, लक्ष्मी भगिनी आगच्छति, लक्ष्मी भगिनी किं क्रेतुम् इच्छति, किं क्रेतुम् इच्छति भवती?
आलुकम्, आलुकम् इच्छामि, पलाण्डु, पलाण्डु अपि इच्छामि, रक्तफलं, रक्तफलानि इच्छामि.
बहु सम्यक्. पलाण्डुः किलोद्वयं दास्यामि, चलति वा?
किलोत्रयं ददातु.
एवं वा, बहु सम्यक्, बहु सम्यक्. किलोत्रयं ददामि, अस्तु. आलु
उत्तमानि सन्ति, उत्तमानि सन्ति वा?
उत्तम, मम समीपे सर्वाणि शाकानि उत्तमानि एव सन्ति महोदय.
नो, ऐ कुड् से सम्यक्, सम्यक्,
सम्यक्, सम्यक्. अस्तु, अद् अहं किं करोमि, उत्तमानि शाकानि मम स्यूते अस्ति, तदेव दास्यामि. See, do you know, they display something else and then they have some, in their stories they have very good quality. So, Lakshmi Bhagini, aham kim karomi, uttamani shakani, yat mame suti santi, aham uttamani shakani dadam. Astu?
Yes. What should I say, give? Dadatu, dadatu.
Dadatu. दादा धन्यवादः, ददातु इति. इतोपि किम् इच्छति?
वन् मिनिट्, ऐ एम् लुकिङ्ग् फोर् करेला.
अत्र अस्ति, अत्र
अस्ति. सारवेल्लम् इच्छामि. मम गृहे सर्वे खादन्ति.
सारवेलं खादन्ति वा, बहु सम्यक्. तिक्तं गृहे सर्वे खादन्ति, भवत्याः गृहे?
सर्वे खादन्ति,
सर्वे खादन्ति, बहु सम्यक्. एण्ड् नौ यु हाव् टु आस्क् मी द प्रैस्. सो कारवेलं,
ओके, कारवेलं एतस्य कति रूप्यकाणि?
Now, we are not taking just one karavelam, right? So,
okay.
It will be in Bahuvachananta. So, how do we put?
Karavelam is Napumsaka Lingama. Lingam va?
Satyam.
Okay. So, karavillani. Etasyaha karavillani kati rupyakani.
Etesha kati rupyakani. Right? Okay.
Yes, etesha.
एतेषां कति रूप्यकाणि, तत् कथमस्ति, एषः पुल्लिङ्गी तस्य भवति एतस्य, एतत् नपुस्तकलिङ्गी तस्य अपि भवति एतस्य, तथैव एतानि भवति बहुवचनान्तं, किन्तु षष्ठी किं भवति, एतेषामेव भवति. सो एतेषां कति रूप्यकाणि,
एतेषां कति रूप्यकाणि,
आहत्य पञ्चविंशतिरूप्यकाणि ददातु. स्यूते स्थापयामि वा, स्यूते स्थापयामि,
स्थापयतु, स्थापयतु,
कृपया धनं ददातु.
ऐ डोण्ट् नो हौ मच् टु गिव् यू,
maybe
so ahatya ekam karotu panchasahasra rupyakani dadatu dasamyak bhavati
okay panchakam rupyakani dadami panchasahasram okay panchasahasrani panchasahasrani rupyakani dadami
okay so shastri asti behini neeta behini shakadukan bahu kasli asti behini panchasahasram iti ukte
sammek sammek
mama vastra syutam mama I want to say I don't have a vastra syutam but syutaha but I have a paper syutaha so how would I say that
vastra
okay मम वस्त्र स्यूतः नास्ति तत्र स्यूतकं स्यूतः अस्ति
परन्तु तस्मिन् तु सर्वाणि शाकानि न आगच्छति सर्वाणि शाकानि कथम् आगच्छन्ति
मम समीपे द्वयं त्रयः स्यूतौ सन्ति स्यूताः सन्ति प्लीस् प्लेस् इट् इन् देट् ऐ डोण्ट् नो हौ टु से देट् इन् संस्कृत्
कृपया तस्मिन् स्थापयतु तस्मिन्
कृपया तस्मिन् स्थापयतु स्थापयतु
बहु सम्यक् बहु सम्यक् बहु सम्यक् सर्वे छात्राः चतुराः सन्ति अत्र ओके अजगन्धः अजगन्धानि पर्णानि किमपि न स्वीकृतवान् इदानीं पर्यन्तं किमेतत् अजगन्धानि पर्णानि न इच्छति वा कोऽपि
आम् इच्छामि भगिनि
पृच्छतु
अजगन्धानि पर्णानि
इच्छति
कति रूप्यकाणि बेनि अजगन्धानि पर्णानि
इदानीं किं भवति अजगन्धानि रूप्यकाणि सो इन् देट् केस् इट् विल् बि षष्टि बहुवचनान्तं खलु सो एतेषां कति रूप्यकाणि
एतेषां कति
रूप्यकाणि ओके बहु सम्यक् देन् इतोपि पाल्की किमपि न इच्छति वा पाल्की स्पिनेच् न इच्छति दीप्ति भगिनी इच्छति पृच्छतु पृच्छतु एतस्याः एतस्याः कति रूप्यकाणि
कति रूप्यकाणि अहम् आद्रकम् अपि
इच्छति वा आद्रकम् अपि इच्छति भगिनी पालकी एका एव सम्यक् वा पालकी एका एव सम्यक् वा तिस्रः पालक्यः दास्यामि चलति वा
पालक्यः
पालक्यः सो नौ आस्क् मी
पालक्यः कति रूप्यकाणि
तत्र एतासाम् इति भवति खलु एतासां सि नौ वाट् इस् द थिङ्ग् नौ एषा पालकी एतस्याः कति रूप्यकाणि तथैव एताः पालक्यः एतासां कति रूप्यकाणि आर् यु फालोयिङ्ग् दीप्ति भगिनी ओके सो इट् विल् बि एतासां कति रूप्यकाणि एण्ड् देन् देर् विल् बि द आन्सर् सो दिस् इस् हौ वी हौ टु रिलेट् ओके भवती आद्रकमपि इच्छति खलु पृच्छतु
आतृकम् एतेषाम् आतृकं कति
बट् इफ् यु आर् पिकिङ्ग् जस्ट् वन् वन् पीस् देन् तस्य कति रूप्यकाणि आतृकं सो इट् विल् बि तस्य कति सो देट्स् आल् देन् इतोपि किं प्रष्टव्यमस्ति वा एनी डौट् एनिबडि इस् हेविङ्ग्
भगिनी कालिफ्लवर् किम् उच्यते
हा देट् इस् गोजिह्वा गोजिह्वा कालिफ्लवर् गोजिह्वा तत्र किमस्ति टिपिकल् देट् रफ् एपियरेन्स् वाट् वी सी आन् देट् कालिफ्लवर् सर्फेस् देट् गो गो इस् धेनु खलु गो धेनु जिह्वा इत्युक्ते
तङ्के
So that is the word coined together, two words, Gojibhva, iti asti tatra.
But is it Pushpa Shakam also correct?
Tatra Parna Shakam, Parna Shakam is cabbage.
Pushpa Shakam?
Parna Shakam is cabbage. Pushpa Shakam api tatra, Pushpa Shakam api cauliflower krute tatra shabda asti, Pushpa Shakam api. But I found Gojibhva is the proper word. So even we can make use of the word Pushpa Shakam.
Gojibhva.
Astu?
Astu.
Vayam Sthagaya Mahatra. Shanti Mantram Kupi Vadati Va.
Purnam Adhaf Purnam Idham Purnat Purnam Dachyade. पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते ॐ शान्ति 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 हरिः ओं तत्सत् श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः
धन्यवादः
पुनर्मिलामः
धन्यवादः
पुनर्मिलामः